आलोक्यशैलो धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः विश्वेश्वरं त्वामभिमत्य विश्वे नन्दं भवज्जातकमन्व पृच्छन् गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः पूर्वाधिकस्त्वय्यनुराग एषाम् वैधिष्ठ तावद् बहुमानभारः ततोऽवमानोदिततत्त्वबोधः सुरादिराजः सह दिव्यगव्या उपेत्यतुष्टावसनष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते स्नेहस्नुतैस्त्वां सुरभिः पयोभिः गोविन्दनामाङ्कितमभ्यषिञ्च ऐरावतोपाहृत दिव्यगङ्गा पाथोभिरिन्द्रोऽपि च जातहर्षः जगत्त्रयेशे त्वयि गोकुलेशे तथाभिषिक्ते सति गोपवाटः नाकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् कदाचिदन्तर्यमुनं प्रभाते स्नायन्ति तावारुणपूरुषेण नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः स सम्भ्रमन्तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्यतातम् उपागतस्तत्क्षणमात्मगेहं पितावदत्तच्चरितं निजेभ्यः हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् निरीक्ष विष्णो परमं पदन्तत् दुरापमन्यैस्त्वमदीदृशस्तान् स्फुरत्परानन्दरसप्रवाह प्रपूर्णकैवल्यमहापयोद्धौ चिरं निमग्नाः खलु गोपसङ्घाः त्वयैव भूमन् पुनरुद्धृतास्ते करबदरवदेवं देवकुत्रावतारे निजपदमनवाप्यं दर्शितं भक्तिभाजा तदिह पशुपरूपी त्वं हि साक्षात् परात्मा पवनपुरनिवासिं पाहि मामामहेभ्यः सदा सर्वत्र गोविन्दनामसङ्कीर्तनम् गोविन्दा गोविन्दा नारायणा अखिलगुरो भगवन् नमस्ते।